एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रस्तोत्री रत्नावली शर्मा। प्रधानमन्त्रिणा सुशीला कार्किणा सह रासोपा दलस्य सभापतिना रवि लामिछाने भिदेन शिष्टाचार मेलवार्ता विहितास्ति। बालुवाटारवर्तिनी प्रधानमन्त्री निवासे ह्य सम्पन्नायां मेलवार्तायां सभापति लामिछाने प्रधानमन्त्रिण कार्किण नेतृत्वे ऐतिहासिकं निर्वाचनं सम्पन्नम् अभूदिति प्रधानमन्त्रिणे वर्धापनं प्रायच्छत्। तदवसरे प्रधानमन्त्री कार्की रासोपा दलेन निर्वाचने प्राप्ताया सफलताया कृते सभापतये लामिछाने विधाय वर्धापनं प्रदाय ऐक्यबद्धतया यथा जनानां नैराश्यं न भवति तथा कार्यं विधातुं परामृष्टवती। प्रतिनिधि सभायाः ज्येष्ठ सदस्येन अर्जुन नरसिंह केसी इत्यनेन राष्ट्रपतेः रामचन्द्र पौडेलस्य समक्षं शपथः ग्रहीष्यते। ज्येष्ठ सदस्यः केसी शीतल निवासवर्तिनी राष्ट्रपति भवने बुधवासरे सपादैकादशवादने शपथं ग्रहीष्यति इति राष्ट्रपतेः कार्यालयेन ज्ञापितं वर्तते। शपथग्रहणानन्तरं सांसद केसी सभामुखस्य निर्वाचनं यावत् ज्येष्ठ सदस्यत्वेन प्रतिनिधि सभायाः सञ्चालनं करिष्यति। अधिकार दुरूपयोग अनुसन्धान आयोगेन पोखरान्तरराष्ट्रिय विमानस्थलस्य निर्माणायोजनायां परामर्शदातृणां नियुक्तये भ्रष्टाचार विहितोऽस्तीति आरोपे पूर्व सचिवेन केदार बहादुर अधिकारिणा सहितानां एकविंशति जनानां विरूद्धं आरोपपत्रं पञ्जीकारितमस्ति। आयोगेन संस्कृति पर्यटन नागरिक उड्डयन मन्त्रालयस्य तात्कालिक सचिवेन केदार बहादुर अधिकारिणा नागरिक उड्डयन प्राधिकरणस्य तात्कालिक महानिर्देशकेन संजीव गौतमेन राजन पोखरेलेन प्रदीप अधिकारिणा च सहितानां एकविंशति जनानां विरूद्धं सार्वजनिक सम्पदां क्षतिं विधाय भ्रष्टाचारो विहित इत्यभियोगे ह्य काष्ठमण्डपवर्तिनि विशेष न्यायालये आरोपपत्रं पञ्जीकारितमस्तीति आयोगस्य प्रवक्त्रा सुरेश न्यूपाने विधेन प्रकाशितायां विज्ञप्तौ उल्लिखितं वर्तते। एवमेव चीनदेशस्य निर्माण संस्थायाः तत्परामर्शदातृणां च विरूद्धमपि भ्रष्टाचारस्याभियोगे आरोपपत्रं पञ्जीकारितमस्ति। आयोगेन तात्कालिक सचिवेन अधिकारिणा पूर्व महानिर्देशकाभ्याम् राजन पोखरेलात् प्रदीप अधिकारिणाश्च चत्वारिंशत् कोटिनां पञ्चदश लक्ष्याणां पूर्व महानिर्देशकात् संजीव गौतमात् महेन्द्रवीर रावलात् च अष्टकोटिनां पञ्चनवति लक्ष्याणां च रूप्यकाणां हानि वित्तम् अभियाच्य आरोपपत्रं पञ्जीकारितमस्ति इति विज्ञप्तौ उल्लिखितं वर्तते। नेपाली कांग्रेस दलस्य केन्द्रीय कार्यसमितेः उपवेशेन सभापतेः गगन कुमार थापा विदस्य त्यागपत्रं सर्वसम्मत्या अस्वीकृतमस्ति। गत फाल्गुन मासस्य एकविंशे दिवसीय सम्पन्ने प्रतिनिधिसभा सदस्यानां निर्वाचने दलस्य पराजयस्य अनन्तरं नैतिकं दायित्वं निर्वहता सभापतिना थापा विदेन त्यागपत्रं दत्तमासीत्। दलस्य उपसभापतेः विश्वप्रकाश शर्मणः अध्यक्षतायाम् उपविष्टेन केन्द्रीय समितेः उपवेशेन वर्तमानायां जटिलायां राजनीतिक परिस्थित्यां गगन थापा विदस्य नेतृत्वम् अपेक्षितं वर्तते इति निष्कर्षः प्रकाशितोऽस्ति। एवमेव नेपाली कांग्रेस दलेन दलस्य आन्तर कारणेन प्रतिनिधिसभायाः निर्वाचने पराजयः प्राप्तोऽस्ति इति निष्कर्षः प्रकाशितो वर्तते। प्रधानमन्त्री सुशीला कार्की निगदति प्रतिनिधिसभा सदस्यानां निर्वाचनेन नेपालस्य निर्वाचनस्य इतिहासे गुणस्तरीयस्य निर्वाचनस्य मानकः स्थापितोऽस्ति। निर्वाचनायोगस्य पदाधिकारिणां कर्मचारिणां च सम्माने ह्य बालुवाटारवर्तिनी प्रधानमन्त्री निवासे आयोजिते जलपान कार्यक्रमे प्रधानमन्त्री कार्की अनेकान् समाहोयान् अपसार्य निर्वाचनस्य पक्षे दृढतापूर्वकं कार्यं कर्तुं क्षमो निर्वाचन आयोगो वर्तते इति प्रशंसां कृतवती। प्रधानमन्त्री कार्की सफलं निर्वाचनं सबलस्य लोकतन्त्रस्य कृते ऐतिहासिकं महत्वपूर्णं चास्ति इति उक्तवती इति गृहमन्त्री ओमप्रकाश अर्याल ज्ञापयत्। तदवसरे आयोगस्य पक्षतः कार्यवाहक प्रमुख निर्वाचन आयुक्तः रामप्रसाद भण्डारी निर्वाचनस्य परिणामस्य प्रतिवेदनं प्रधानमन्त्रिणः समक्षं हस्तान्तरणं विहितवान्। कपिलवस्तु जनपद प्रशासन कार्यालयन पुनः अपराम सूचनाम यावत महाराजगंज नगरपालिका कतिपय सुख क्षेत्रेष् निषेधाज्ञा क्रियान्विता अस्ति। जनपद सुरक्षा समिति निर्णयस्य अनुसारेण अपराम सूचनाम यावत निषेधाज्ञा क्रियान्विता अस्ति। कपिलवस्तु जनपदस्य प्रमुख जनपदाधिकारी जनार्दन गौतम सूचयत् निर्धारितेष् क्षेत्रेष् जनसम्मर्द सभा जनप्रदर्शनञ्च निषिद्धानि सन्ति। कपिलवस्तु जनपदस्य महाराजगंज नगरपालिकाया द्वितीय वडा क्षेत्रस्य बर्गदा स्थाने द्वयोः समुदायोः मध्ये सम्भूतस्य विवादस्य कारणेन निषेधाज्ञा क्रियान्विता अस्ति। बर्गदा क्षेत्रे सम्भूतायां घटनायां त्रयोविंशति जनाः आहताः आसन्। घटनायाः विषयम् अनुसन्धातुं प्रहरिणा नव जनाः नियन्त्रिताः सन्ति। प्रहरी उपरीक्षकः सन्तोष आचार्यः असूचयत् अत्रान्तरे प्रशासनेन सूचनां प्रकाश्य जनपदे शान्ति सुरक्षां सद्भावञ्च स्थापयितुं सम्बद्धेभ्य सर्वेभ्य अनुरोधमस्ति। गत शुक्रवासरात् देशस्य अधिकेषु स्थानेषु सम्भूतायाः वृष्टेः अनन्तरं वायोः प्रदूषणस्य मात्रा उल्लेखनीयरूपेण न्यूनीभूता अस्ति। वातावरणे वायोः गुणस्तरस्य विश्लेषणे सप्तदिवसेभ्य पूर्वं वातस्य स्वच्छतायाः AQI परिमाणस्य 78% संख्यायुक्ता आसीत्। परं सम्प्रति वायु प्रदूषणं 60% AQI परिमाणयुतं वर्तते। अध्यागमन विभागेन निषेधित क्षेत्रे पदयात्रायाः क्रमे ग्रहणीयायाः अनुमति सेवायाः सहजता द्रुतता च विहिता अस्ति। विभागेन ह्य सूचनां प्रकाश्य वैदेशिक नागरिकैः नेपालस्य 13 जनपदानां निर्धारितेषु निषेधित क्षेत्रेष् पदयात्रायाः कृते विभागात् अनिवार्य रूपेण पदयात्रानुमतेः व्यवस्था विहिता अस्ति।